राम राम। हरि मीडे हरि स्तुतिः। स्तोषे भक्त्या विष्णुमनादिं जगदादिं यस्मिन्नेतत् संस्मृतिचक्रं भ्रमतीथम् यस्मिन् दृष्टे नश्यति तत् संस्मृतिचक्रम् तम् संसारध्वान्तविनाशम् हरिमीडे यस्यैकांशादित्थमशेषम् जगदेतत् प्रादुर्भूतम् येन पिनद्धम् पुनरित्थम् येन व्याप्तम् येन विबुद्धम् सुखदुःखैः तम् संसारध्वान्तविनाशम् हरिमीडे सर्वज्ञो यो यश्च हि सर्वः सकलो यो यश्चानन्दोऽनन्तगुणो यो गुणधामा यश्चाव्यक्तो व्यस्तसमस्तः सदसद्यः तम् संसारध्वान्तविनाशम् हरिमीडे यस्मादन्यन्यास्त्यपि नैवम् परमार्थम् दृश्यादन्यो निर्विषयज्ञानमयत्वात् ज्ञातृज्ञानज्ञेयविहीनोऽपि सदाज्ञः तम् संसारध्वान्तविनाशम् हरिमीडे आचार्येभ्यो लब्धसु सूक्ष्माच्युततत्त्वा वैराग्येणाभ्यासबला चैव दृढिम्ना भक्त्यैकाग्र्यध्यानपरायम् विदुरीशम् तम् संसारध्वान्तविनाशम् हरिमीडे प्राणानायम् योमिति चित्तम् हृदि रुद्ध्वा नान्यत् स्मृत्वा तत्पुनरत्रैव विलाप्य क्षीणे चित्ते बाधृशिरस्मीति विदुर्यम् तम् संसारध्वान्तविनाशम् हरिमीडे यम् ब्रह्माख्यम् देवमनन्यम् परिपूर्णम् हृत्स्थम् भक्तैर्लभ्यमजम् सूक्ष्ममतर्क्यम् ध्यात्वात्मस्थम् ब्रह्मविदोऽयम् विदुरीशम् तम् संसारध्वान्तविनाशम् हरिमीडे मात्रातीतम् स्वात्मविकासात्मविबोधम् ज्ञेयातीतम् ज्ञानमयम् हृद्युपलभ्यम् भावग्राह्यानन्दमनन्यम् च विदुर्यम् तम् संसारध्वान्तविनाशम् हरिमीडे यद्यद्वेद्यम् वस्तु सतत्त्वम् विषयाख्यम् तत्तद्ब्रह्मैवेति विदित्वा तदहम् च ध्यायन्त्येवम् यम् सनकाध्यामुनयोजम् तम् संसारध्वान्तविनाशम् हरिमीडे यद्यद्वेद्यम् तत्तदहम् नेति विहाय स्वात्मज्योतिर्ज्ञानमयानन्दमवाप्य तस्मिन्नस्मीत्यात्मविदोऽयम् विदुरीशम् तम् संसारध्वान्तविनाशम् हरिमीडे हित्वा हित्वा दृश्यमशेषम् सविकल्पम् मत्वा वासिष्ठं भादृशि मात्रं गगनाभम् त्यक्त्वा देहं यं प्रविशन्त्यच्युत भक्ताः तं संसारध्वान्त विनाशं हरिमीडे सर्वत्रास्ते सर्वशरीरि न च सर्वः सर्वं वेत्येवेह नयं वेति च सर्वः सर्वत्रान्तर्यामित एथं यमयन्यः तं संसारध्वान्त विनाशं हरिमीडे सर्वं दृष्ट्वा स्वात्मनियुक्त्य जगदेतत् दृष्ट्वात्मानं चैवमजं सर्वजनेषु सर्वात्मैकोऽस्मीति विदुर्यं जनहृत्स्थम् तं संसारध्वान्त विनाशं हरिमीडे सर्वत्रैकः पश्यति जिघ्रत् यथ भुङ्क्ते स्प्रष्टा श्रोता बुध्यति चेत्याहुरिमम्यम् साक्षी चास्ते कर्तृषु पश्यन्निति चान्ये तं संसारध्वान्त विनाशं हरिमीडे पश्यन् शृण्वन्नत्र विजानन् रसयन् सम् जिघ्रद्बिभ्रद्देहमिमं जीवत एथम् इत्यात्मानं यं विदुरीशं विषयज्ञम् तं संसारध्वान्त विनाशं हरिमीडे जाग्रद्दृष्ट्वा स्थूलपदार्थानथ मायाम् दृष्ट्वा स्वप्नेथापि सुषुप्तौ सुखनिद्रा इत्यात्मानं वीक्ष्य मुदास्ते चतुरीये तं संसारध्वान्त विनाशं हरिमीडे पश्यन् क्षुद्धोऽप्यक्षर एको गुणभेदा नानाकारान् स्फाटिकवद्भाति विचित्रः भिन्नश्चिन्नश्चायमजः कर्म फलैर्यः तं संसारध्वान्त विनाशं हरिमीडे ब्रह्मा विष्णु रुद्रहुताशौ रविचन्द्रौ इन्द्रो वायुर्यज्ञ इतीथं परिकल्प्य एकं सन्तं यं बहुदाहुर्मतिभेदात् तं संसारध्वान्त विनाशं हरिमीडे सत्यं ज्ञानं शुद्धमनन्तं व्यतिरिक्तम् शान्तं गूढं निष्कलमानन्दमनन्यम् इत्याहादौ यं वरुणोऽसौ भृगबीजम् तं संसारध्वान्त विनाशं हरिमीडे कोशानेतान् पञ्चरसादीनतिहाय ब्रह्मास्मीति स्वात्मनि निश्चित्य धृषिस्तम् पित्रासिष्टो वेद भृगुर्यं यजुरन्ते तं संसारध्वान्त विनाशं हरिमीडे येनाविष्टो यस्य च शक्त्या यदधीनः क्षेत्रज्ञोऽयं कारयिता जन्तुषु कर्तुः कर्ता भोक्तात्मात्र हि यच्छक्त्यधिरूढः తం సంసార ధ్వాంత వినాశం హరిమీడే. సృష్ట్వా సర్వం స్వాత్మతయైవేతమతర్క్యం వ్యాప్యాథాంత కృత్స్నమిదం సృష్టమశేషం సత్యత్యక్చాభూత్ పరమాత్మా సయ ఏకః తం సంసారధ్వాంత వినాశం హరిమీడే. వేదాంతైశ్చాధ్యాత్మిక శాస్త్రైశ్చ పురాణైః శాస్త్రైశ్చాన్యైః సాత్వత తంత్రైశ్చ యమీశం దృష్ట్వాథాంతశ్చేతసి బుద్ధ్వా వివిశుర్యం తం సంసారధ్వాంత వినాశం హరిమీడే. శ్రద్ధా భక్తి ధ్యాన శమాధ్యైర్యతమానైః జ్ఞాతుం శక్యో దేవ ఇహైవాశూయ ఈశః దుర్విజ్ఞేయో జన్మ శతైశ్చాపి వినాతైః తం సంసారధ్వాంత వినాశం హరిమీడే. యస్యాతర్క్యం స్వాత్మవిభూతే పరమార్థం సర్వం ఖల్విత్ యత్ర నిరుక్తం శృతివిద్భిః తజ్జాదిత్వాదబ్ధి తరంగాభమభిన్నం తం సంసారధ్వాంత వినాశం హరిమీడే. దృష్ట్వా గీతా స్వక్షరతత్వం విధినాజం భక్త్యా గుర్వ్యాలభ్య హృదిస్థం దృషిమాత్రం ధ్యాత్వా తస్మిన్నస్మ్యహమిత్యత్ర విదుర్యం తం సంసారధ్వాంత వినాశం హరిమీడే. క్షేత్రజ్ఞత్వం ప్రాప్య విభుః పంచముఖైర్యో భుంక్తేజస్రం భోగ్య పదార్థాన్ ప్రకృతిస్థః క్షేత్రే క్షేత్రేప్స్విందువదేకో బహుధాస్తి తం సంసారధ్వాంత వినాశం హరిమీడే. యుక్త్యాలోడ్య వ్యాసవచాంస్యత్ర హి లభ్యః క్షేత్రక్షేత్రజ్ఞాంతరవిద్భిః పురుషాఖ్యః యోహం సోసౌ సోస్మ్యహమేవేతి విదుర్యం తం సంసారధ్వాంత వినాశం హరిమీడే. ఏకీకృత్యానేక శరీరస్థమిమమ్యం యం విజ్ఞాయేహైవ స ఏవాశు భవంతి యస్మిన్ లీనానేహ పునర్జన్మ లభంతే తం సంసారధ్వాంత వినాశం హరిమీడే. ద్వంద్వైకత్వం యచ్చ మధు బ్రాహ్మణ వాక్యైః కృత్వా శక్రోపాసనమాసాధ్య విభూత్యా యోసౌ సోహం సోస్మ్యహమేవేతి విదుర్యం తం సంసారధ్వాంత వినాశం హరిమీడే. యోయం దేహే చేష్టయితాంతః కరణస్థః సూర్యే చాసౌ తాపయితా సోస్మ్యహమేవ ఇత్యాత్మైక్యోపాసనయాయం విదురీశం తం సంసారధ్వాంత వినాశం హరిమీడే. విజ్ఞానాంశో యస్య సతః శక్త్యధిరూఢో బుద్ధిర్బుద్ధ్యత్ యత్ర బహిర్బోధ్య పదార్థాన్ नैवान्तस्थम् बुध्यतियम् बोधयितारम् तम् संसारद्वान्तविनाशम् हरिमीडे। कोऽयम् देहे देव इतीत्थम् सुविचार्य ज्ञाता श्रोता मन्त्रयिता चैष हि देवः इत्यालोच्य ज्ञांश इहास्मीति विदुर्यम् तम् संसारध्वान्तविनाशम् हरिमीडे। ओह्येवान्यादात्मनि न स्यादयमेष ह्येवानन्दः प्राणिति चापानिति चेति इत्यस्तित्वम् वक्त्युपपत्या श्रुतिरेषा तम् संसारद्वान्तविनाशम् हरिमीडे। प्राणो वाहम् वाक्श्रवणादीनि मनो वा बुद्धिर्वाहम् व्यस्त उताहोऽपि समस्तः इत्यालोच्य ज्ञप्तिरिहास्मीति विदुर्यम् तम् संसारध्वान्तविनाशम् हरिमीडे। नाहम् प्राणो नैव शरीरम् न मनोऽहम् नाहम् बुद्धिर्नाहमहङ्कारधियौ च योऽत्र ज्ञांशः सोऽस्म्यहमेवेति विदुर्यम् तम् संसारध्वान्तविनाशम् हरिमीडे। तत्तामात्रम् केवलविज्ञानमजम् सत् सूक्ष्मम् नित्यम् तत्त्वमसीत्यात्मसुताय साम्नामन्ते प्राह पितायम् विभुमाध्यम् तम् संसारध्वान्तविनाशम् हरिमीडे। मूर्तामूर्ते पूर्वमपोह्याथ समाधौ दृश्यम् सर्वम् नेति च नेतीति विहाय चैतन्यांशे स्वात्मनि सन्तम् च विदुर्यम् तम् संसारध्वान्तविनाशम् हरिमीडे। ओतम् प्रोतम् यत्र च सर्वम् गगनान्तम् यो स्थूलानन्वादिषु सिद्धोऽक्षरसंज्ञः ज्ञातातोऽन्यो नेत्युपलभ्यो न च वेद्यः तम् संसारध्वान्तविनाशम् हरिमीडे। तावत् सर्वम् सत्यमिवा भाति यदेतत् यावत् सोऽस्मीत्यात्मनि योग्यो न हि दृष्टः दृष्टे यस्मिन् सर्वमसत्यम् भवतीदम् तम् संसारध्वान्तविनाशम् हरिमीडे। रागान्मुक्तम् लोहयुतम् हेम यथाग्नौ योगाष्टाङ्गैरुज्ज्वलितज्ञानमयाग्नौ दग्ध्वात्मानम् यम् परिशिष्टम् च विदुर्यम् तम् संसारध्वान्तविनाशम् हरिमीडे। यम् विज्ञानज्योतिषमाध्यम् सुविभान्तम् हृद्यर्केन्द्वज्ञोकसमीड्यम् तटिदाभम् भक्त्याराध्ये हैव विशन्त्यात्मनि सन्तम् तम् संसारध्वान्तविनाशम् हरिमीडे। पायाद्भक्तम् स्वात्मनि सन्तम् पुरुषम् यो भक्त्या स्तौतीत्याङ्गिरसम् विष्णुरिमम् मा त्यात्मानं स्वात्मनि संहृत्य सदैकः तं संसारध्वान्तविनाशं हरिमीडे। राम राम।